एष रेडियो नेपालः। सम्प्रति समाचारः श्रूयन्ताम्। प्रवाचकः उपेन्द्र दाहालः। प्रधानमन्त्री केपी शर्मा ओली कथयति सामाजिक सुरक्षायाः परिधेः विस्तारः करिष्यति। योगदाने आदितायाः सामाजिक सुरक्षा योजनायाः क्रियान्वयनस्य सप्तानां वर्षाणां पूरणस्य अवसरे श्रमवृत्ति सामाजिक सुरक्षा मन्त्रालयेन ह्य काष्ठमण्डपे आयोजिते कार्यक्रमे प्रधानमन्त्री ओली आगामी 90 दिनानां पश्चात् योगदानकर्तृणां पुत्राः पुत्र्यश्चापि कोषात् लाभान्विताः भविष्यन्ति। एकलक्षतोऽधिक रूप्यकाणाम् उपचारस्य आवश्यकतावताम् योगदानकर्तृणां जनानां सम्पूर्णोपचारस्य प्रतिशतं 50% उपचारव्ययः कोषेण निर्वक्ष्यते चेति अघोषयत। प्रधानमन्त्री ओली संविधानस्य अनुसारेण वर्तमान सर्वकारः जनतां प्रति दायित्ववाही अस्ति, त्यतः प्रत्येकं नागरिकेभ्य सामाजिक सुरक्षा प्रदापयिष्यते इति विश्वासम् अदापयत। प्रधानमन्त्री ओली वैदेशिक वृत्त्युपार्जनाय गतांजनान् कोषे समावेष्टुं सम्बद्ध राष्ट्राणां सर्वकारैः वृत्तिप्रदायकैः संस्थानैश्च सहापि संविदा करणीयेति बलं प्रादात्। तदवसरे समवृत्ति सामाजिक सुरक्षा मन्त्री शरद सिंह भण्डारी विश्वस्य सर्वस्मिन् अपि स्थानेषु श्रम स्वीकृतिं गृहीत्वा वृत्त्युपार्जनाय गतानां प्रभावकारिरूपेण सामाजिक सुरक्षा योजनायां समावेशनत्वेन सर्वकारेण कार्यं विधीयमानम् अस्ति इति अज्ञापयत। कार्यक्रमे स्वास्थ्य जनसंख्या मन्त्री प्रदीप यादव पौडेलः गार्हस्थ श्रमिकान् इष्टिकोत्पादकशालासु कार्यरतान् श्रमिकान् यातायात क्षेत्रे कार्यरतान् श्रमिकान् अपि अस्यां योजनायां समावेष्टुं बलं प्रादात्। कार्यक्रमे राष्ट्रिय योजना आयोगस्य उपाध्यक्ष प्राध्यापकः डाक्टर शिवराज अधिकारी श्रमिकाणां जीवने सम्भावितं संकटं न्यूनीकर्तुं योगदाने आदृतया सामाजिक सुरक्षा योजनया सहयोगः कृतोस्तीति उदैरयत। कार्यक्रमे उद्योग वाणिज्य महासंघस्य अध्यक्ष चन्द्र प्रसाद ढकालः, आवासीयतर नेपाली संघस्य अध्यक्ष बद्री केसी, कोषस्य कार्यकारी निर्देशकः कविराज अधिकारी च विचारान् व्यक्तवन्तः। सामाजिक सुरक्षा दिवसस्य अवसरे नेपाल ट्रेड युनियन महासंघेन ह्य काष्ठमण्डपे आयोजिते कार्यक्रमे प्रधानमन्त्री ओली सामाजिक सुरक्षा कोषस्य स्थापनायां ट्रेड युनियन महासंघेन सह श्रमिक संघटनानां महत्वपूर्णं योगदानमस्तीति अवोचत। प्रधानमन्त्री ओली श्रमिकाणां योगदानकर्तृणां च प्रतिनिधित्वेन विना श्रमिकाणां विषय निर्णयनस्य प्रवृत्तिः अनुचितास्तीति भासमाणा। सामाजिक सुरक्षा कोषे तथाविधं किमपि प्राप्तं सदा संशोधनं करिष्यते इति प्रतिबद्धतां व्यक्तवान्। कार्यक्रमे उपप्रधानार्थमन्त्री विष्णुप्रसाद पौडेलः सामाजिक सुरक्षायाः परिधेः विस्तारस्य आवश्यकतां दर्शितवान्। उपप्रधानमन्त्री पौडेलः कोषः अतिरिक्त प्रभावकारी विधेयः इत्यत्र बलं प्रददत्। सर्वकारेण सामाजिक सुरक्षा कार्यक्रमः अतिरिक्तं प्रभावकारी रचनात्मकश्च विधास्यते इति विश्वासम् अदापयत्। परराष्ट्रमन्त्री डाक्टर आरजू राणा देवा आर्थिक कूटनीतिं प्राथमिकतायां संस्थाप्य अस्याः विस्ताराय प्रवर्धनाय च नेपालस्य नवनियुक्तान् राजदूतान् निर्यात व्यवसायिनश्च अनुरुणद्धि। सर्वकारेण सम्प्रत्येव नियुक्तैः राजदूतैः निर्यात व्यवसायीभिश्च सह ह्यो विहितायाम् अन्तरक्रियायां मन्त्री डाक्टर राणा देशस्य विकासाय राष्ट्रिय समृद्धेः आकांक्षां पूरयितुं च मन्त्रालयेन नीतिगत रूपेणैव आर्थिक कूटनीतिः समस्त कूटनीतिषु प्राथम्येन स्थापितास्ति इति चर्चयन्ती आर्थिक कूटनीतेः प्रवर्धनाय प्रवर्तनाय अन्वरुणत। मन्त्री डाक्टर राणा वैदेशिकापणेषु नेपालस्य उत्पादनानां वस्तूनां विशिष्ट परिचयोऽस्ति, त्यतः गुणस्तरीयतां संस्थाप्य निर्यातं विधातुं व्यवसायिनः परामृशत। संचार सूचना प्रविधि मन्त्री पृथ्वी सुब्बा गुरूङ चीनदेशीय बीआरआई परियोजनायाः अन्तर्गतं सर्वकारेण ऋणं न ग्रहीष्यते इति स्पष्टयति। आगामिनि सप्ताहे विधास्यमानस्य प्रधानमन्त्रिणः केपी शर्मा ओलिनः चीन देशस्य भ्रमणस्य अवसरे सर्वकारेण ऋणं न ग्रहीष्यते परम् अनुदान सहयोग सम्बद्धा संविदा कर्तुं शक्यते इति प्रावोचत। काभ्रे पलाञ्चोक जनपदस्य धुलीखेल स्थाने ह्यः आयोजिते कार्यक्रमे बीआरआई परियोजना संचालनीया नवेति द्विकोणात्मकाः विचाराः प्राप्यमाणाः सन्ति। सर्वकारः बीआरआई परियोजनायाः पक्षे विपक्षे वा नास्ति, परं द्विपक्षीय संविदायाः विधानात् तस्याः क्रियान्वयनं कर्तव्यं भवतीति मन्त्री गुरुङ समस्पष्टयत्। मन्त्री गुरुङ सर्वकारेण लोकतन्त्रं नागरिकाञ्च सबलां विधातुं समीचीनेन चिन्तनेन विकास निर्माणस्य कार्याणि केन्द्रे संस्थाप्य स्वस्य गतिविधयः सञ्चाल्यमानाः सन्तीति अवोचत। यह एव संचार सूचना प्रविधि मन्त्री पृथ्वी सुब्बा गुरुङ भ्रष्टाचारे संलग्नः एकेऽपि जनाः दण्ड्यन्ते एवेति प्रतिबद्धतां व्यक्तवान् अस्ति। नेकपा एमाले दल गण्डकी प्रदेश समित्या ह्य पोखरायाम् आयोजिते कार्यक्रमे एमाले दलस्य उपमहासचिवश्च मन्त्री गुरुङ एवं अवोचत। वन वातावरण मन्त्री ऐन बहादुर साई ठकुरी भाषते जलवायुजन्यानां समस्यानां समाधानाय सम्बद्धैः पक्षैः समन्वयः आवश्यको वर्तते। वन्यजन्तु संरक्षण संघेन ह्यः काष्ठमण्डपे आयोजिते कार्यक्रमे मन्त्री गुरुङ जलवायुज संकटं समाधातुं समन्वयस्य सहकार्यस्य च आवश्यकतां दर्शितवान्। कृषि पशुपक्षी विकास मन्त्री रामनाथ अधिकारी निगदति दुग्ध विकास संस्थानं प्रभावकारी विधाय ऋणात् मोचयितुम् आत्मना प्रयासः विधीयमानो वर्तते। ह्य मन्त्रालये राष्ट्रिय कृषक सञ्जालस्य ज्ञापन पत्रं गृह्णन् मन्त्री अधिकारी दुग्ध विकास संस्थायाः उत्पादनानां व्यक्तिगत रूपेणापि निर्यातं वर्धयितुम् आत्मना प्रयास विद्यमानोऽस्ति, अस्य परिणामश्च शीघ्रमेव द्रष्टुं शक्यते इति उदैरयत। ज्ञापनपत्रं प्रस्तुवता कृषक सञ्जालेन दुग्ध इच्छु प्रवृत्तिषु क्षेत्रेषु विद्यमानाः समस्याः समाधातुं मन्त्रालयस्य ध्यानाकर्षणं विहितम् आसीत्। उपराष्ट्रपतिना रामसाहय प्रसाद यादवेन सह नेपालस्य कृते संयुक्त अरब इमिरेट्स देशस्य राजदूतेन अब्दुल्ला अल शम्सी इत्यनेन शिष्टाचार मेलवार्ता विहिता अस्ति। लयनचोरवर्तिनी उपराष्ट्रपतेः कार्यालये ह्य सम्भूते एतयोर्मेलने द्विपक्षीयस्य सम्बन्धस्य समस्य आर्थिक सम्बन्धस्य च विषयेष् विमृष्टमिति उपराष्ट्रपतेः नैज सचिवालयेन ज्ञापितं वर्तते।